नमस्सर्वेभ्यः अद्य सम्पूरामायणस्य बालकाण्डे ऊनत्रिंशः पाठः जुलै मासस्य त्रयोविंशः दिनाङ्कः। वस्तुतः गतसप्ताहे अनेन वर्गेण भवितव्यमासीत्। So I lost my internet connectivity just before class. So I could not make alternate arrangements at that time. So sorry about that. Mangalam kartum icchanti kebi? Venkateshwaran.
Lakshmi tanotu nitaram vitaran apeksham अङ्घ्रिद्वयम् यजमसा शिशिकाप्तवालम् ऐरम्बमम्बुरुहडम्बर शौर्यज्ञम् विघ्नाद्रिभेदपतधार दुरन्दरम् नः।
सम्यक्, धन्यवादाः। किञ्चित् पुनरावर्तनं कुर्मः। गतवर्गे अस्माभिः कुमारसम्भवः अर्थात् कार्तिकेयस्य उत्पत्तिकथा श्रुता अधीता। तत्र शिवपार्वत्योः विवाहः अभूत्। तपस्यन्तीं गिरिर्गौरीं देवाय महते ददौ, शिवयोर्युञ्जतोर्वीर्यं दृष्ट्वा भूमौ समर्पितम्। यदा शिवपार्वत्योः संयोगः भवति तदा देवतैः प्रार्थितः शिवः वीर्यं भूमौ उत्सृजति, सः अग्निना स्वीक्रियते, तेन पार्वत्याः कोपः उत्पद्यते। अकरोदम्बिकाक्रोधः पुत्रालाभसमुद्भवः, तेन पार्वती देवान् पृथ्वीं च शपति। ततः तद्वीर्यं भूमौपतितं वीर्यम् अग्निः स्वीकरोति, अग्निः गङ्गायां स्थापयति, वह्निरह्नाय जाह्नव्यां न्यषिञ्चद्वीर्यमैश्वरम्। सापि तद् वोढुम् अक्षमा श्रान्ता शरवणे जहौ, सो शरवणे तद्वीर्यं स्थाप्यते गङ्गया। तत्र तत्राभूत् कृत्तिकाप्रीत्यै षोढारूढमुखाम्बुजं तारकध्वान्तविध्वंसि सद्य षाण्मातुरं महः। तत्र शरवणे कार्तिकेयस्य उत्पत्तिः भवति, स च कृत्तिकाभिः स्तन्यप्रदानेन पाल्यते इत्येषा कथा दृष्टा। ततः गङ्गायाः विषये, गङ्गा कथं भूमिम् आगता इत्येतद्विषये विश्वामित्रः श्रीरामं कथयति। त्रैविध्यं श्रूयतां वत्स सरितस्त्रिदिवौकसाम् यथोक्तं हव्यमश्नन्त्या देवताया इवाध्वरे। यथा अग्निः शास्त्रोक्तं हविः अश्नाति, तस्य अग्नेः यथा त्रैविध्यं भवति गार्हपत्य आहवनीय दक्षिणाग्निरूपेण, एवं गङ्गायाः अपि त्रैविध्यं भवति। गङ्गा त्रिपथगामिनी इत्येव प्रसिद्ध। स्वर्गे भूमौ पाताले च तस्याः सञ्चारः भवति। अतः तत् कथं सम्पन्नम् इति कथां वक्तुम् आरभते विश्वामित्रः। श्लोकमनुवक्तुम् इच्छन्ति वा? जानकी भगिनि,
पुरीमयोध्यामध्यास्थ
सावित्रस्वगरो नृपः,
सावित्रस्तगरो नृपः केशिनी सुमतिभ्याञ्च लङ्घितप्रथमाश्रमः। पुरी अयोध्या अध्यास्थ सावित्रः सगरः नृपः केशिनी सुमतिभ्यां च लङ्घित प्रथमाश्रमः.
सम्यक्. एते अपि श्लोकाः सर्वेपि अनुष्टुप् छन्दसि एव निबद्धाः. सो द एण्टैर् नरेशन् आफ् विश्वामित्र, द स्टोरी आफ् गङ्गा अण्ड् द स्टोरी आफ् कार्तिकेय, एव्रिथिङ्ग् इस् इन् अनुष्टुप्. सो स्माल् ईजि श्लोकस्. सो पुरीम् अयोध्याम् अध्यास्त सावित्रः पगरः नृपः केशिनी सुमतिभ्यां च लङ्घित प्रथम आश्रमः. लङ्घित प्रथमाश्रमः. अध्यास्त इति क्रियापदम्. अध्यास्त अधिवसति स्म. काम् अध्यास्त पुरीम्, पुरी नगरी. काम् पुरीम् अयोध्याम्. सो अयोध्यानगरे वसति स्म इत्यर्थः. कः अध्यास्त? नृपः, राजा. किं नाम नृपः? सगरः. सो सगरनामकः राजा अयोध्यानगर्यां वसति स्म. कीदृशः सः नृपः? सावित्रः. सविता इत्युक्ते सूर्यः. नमस्सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाशहे कवे. सो सविता, सवितृ शब्दः ऋकारान्तः, पुल्लिङ्गः, सूर्यः इत्यर्थः. सो तस्य सूर्यस्य वंशे जातः सावित्रः नाम सूर्यवंशीयः राजा सगरः आसीत्. पुनः कीदृशः सः? लङ्घित प्रथमाश्रमः. आश्रमाः चत्वारः भवन्ति: ब्रह्मचर्यं, गार्हस्थ्यं, वानप्रस्थः, सन्यासः इति चत्वारः आश्रमाः. तत्र प्रथमः आश्रमः ब्रह्मचर्यम्. लङ्घित प्रथमाश्रमः ब्रह्मचर्यम् अतीत्य गार्हस्थ्यं प्रविष्टः इत्यर्थः. अर्थात् विवाहं कृतवान् ऊढः. सो तस्य पत्न्यौ के इति चेत् केशिनी सुमतिभ्यां च. सो केशिनी इति एका पत्नी, सुमतिः इति अपरा पत्नी. सो एताभ्यां पत्नीभ्यां ब्रह्मचर्यम् अतीतः. सो वित् दीस् वैव्स् ही क्रास् द ब्रह्मचर्य एण्ड् एण्टर्ड् द गृहस्थाश्रम इत्यर्थः. सरलः श्लोकः. केशिनी सुमतिभ्यां लङ्घित प्रथमाश्रमः, सावित्रः सगरः नृपः, अयोध्यां पुरीम् अध्यास्त. सो केशिनी सुमतिनामिकां कन्याद्वयं परिणीय गार्हस्थ्यं प्रविष्टः. सो ही हू क्रास्ड् द फर्स्ट् आश्रम, दट् इस् ब्रह्मचर्य, वित् टू वैव्स्, दट् इस् केशिनी एण्ड् सुमति. सो सावित्रः सगरः नृपः. सगरनामकः सूर्यवंशस्य राजा. सो किङ्ग् सगर बोर्न् इन् द सोलार् डैनास्टि. अयोध्यां पुरीम् अध्यास्त. सो अयोध्यानगरीम् अधिवसति स्म. सो सगर वास् लिविङ्ग् रूलिङ्ग् इन् अयोध्या इत्यर्थः. सो एषा कथा रामस्य पूर्वजस्य कथा. सो सगरः रामस्य पूर्वजः. सो हि इस् एन् एन्सेस्टर् आफ् राम. तस्य कथा एव उच्यते. सो अत्र अध्यास्त इत्यस्ति. अधि इति उपसर्गः. आस उपवेशने इति धातुः, आत्मनेपदी धातुः. तस्य लङ्लकारे प्रथमपुरुषे एकवचनरूपम् अध्यास्त. लट्लकारे अध्यास्ते, अध्यासाते, अध्यासते इति भवति. लङ्लकारे अध्यास्त. तत्र व्याकरणविशेषः अस्ति अयोध्याम् अध्यास्त इत्यस्य. तत्र वस्तुतः अयोध्यायाम् आसीत् इत्यर्थः. अधिकरणं सप्तम्यर्थः अस्ति. अधिशीङ् स्थासां कर्म इति सूत्रमस्ति. सो अधि इति उपसर्गः भवति. शीङ् स्था आस्. सो त्रयाणां धातूनां यदा अधि इति उपसर्गः भवति तदा आधारः कर्म भवति इति सूत्रम्. सो यदा अधिपूर्वकः आस् धातुः अस्ति तदा अधिकरणस्य कर्मसंज्ञा. द लोकेटिव् इस् कन्वर्टेड् टु एन् आब्जेक्ट्. सो इट् इस् एक्चुली ही लिव्ड् इन् अयोध्या इत्येव अर्थः. अयोध्यायाम् आसीद् इत्येव अर्थः. किन्तु द्वितीया विभक्तिः भवति. सो अयोध्यायाम आस्ते यदा अधि इति उपसर्गः भवति तदा अयोध्याम अध्यास्ते अयोध्याम अधिशेते विष्णुः वैकुंठम अधिशेते शिवः कैलासम अधितिष्ठति अयम् व्याकरण विशेषः द्वितीय विभक्ति प्रयोगः भवति तो पुरीम अयोध्याम अध्यास्त सावित्रः सवितुः अपत्यम् सवित्र शब्दात् अपत्यार्थे अण् इति तद्धित प्रत्ययः सावित्रः इति रूपम् सगरो नृपः लङ्घित प्रथमाश्रमः तो प्रथमः आश्रमः प्रथमाश्रमः लङ्घितः प्रथमाश्रमः येन सह लङ्घित प्रथमाश्रमः पुरीम अयोध्यामध्यास्त सावित्रः सगरो नृपः केशनी केशिनी सुमतिभ्याञ्च लङ्घित प्रथमाश्रमः अग्रिमश्लोकः वेङ्कटेश्वरन् महोदय
सपुत्रीयन् सपत्नीकः
तपस्तेपे समाशतम्
भृगुः प्रीतमनास्तस्मै
ददौ दायाद सम्पदम्
सपत्नीकः तपः समाः शतम् भृगुः प्रीतमनाः तस्मै ददौ दायाद सम्पदम्
सम्यक् अस्ति सः पुत्रीयन् सपत्नीकः तपः तेपे समाः शतम् भृगुः प्रीतमनाः तस्मै ददौ दायाद सम्पदम् वाक्यद्वयम् विद्यते तपस्तेपे इति प्रथमं वाक्यं ददौ इति द्वितीयं वाक्यं सो तपः तेपे तपश्चर्यां चकार सो तपः तेपे इस् एक्चुअलि अ रिपिटिशन् इट्स् नाट् रिक्वैर्ड् तेपे इत्युक्ते तपः कृतवान् इत्येव अर्थः तपः एव तप्तुं शक्यं सो देर् इस् नथिङ्ग् एल्स् बट् इट् इस् अ यूनीक् यूसेज् तपस्तेपे इति प्रयोगः अस्ति वस्तुतः नापेक्षितम् सो यथा द्वौ ब्राह्मणौ इति उच्यते ब्राह्मणौ इत्युक्ते एव द्वौ इति ज्ञायते तत्र पुनः द्विशब्दस्य प्रयोगः नापेक्षितः किन्तु भाषायां भवति सो इडियोसिंक्रेटिक् यूसेज् सो तपस्तेपे इति प्रयोगः तपः कृतवान् इत्यर्थः कः तेपे सः नाम सगरः पूर्वोक्तः सगरमहाराजः तपश्चर्यान् चकार कीदृशः सः तपस्तेपे पुत्रीयन् पुत्रम् आत्मनः इच्छति इति पुत्रीयति बहुवारं चम्पूरामायणे एव दृष्टः प्रयोगः सो पुत्रम् इच्छन् पुनः कीदृशः तपत्नीकः पत्नीभ्यां सहितः तपश्चकार कियत्कालं तेपे शतं समाः इत्यस्य वर्षम् इत्यर्थः वर्षाणि शतं वर्षाणि यावत् तपश्चर्यां कृतवान् सो सः सकरः पुत्रेच्छया पत्नीभ्यां सह शतं वर्षाणि यावत् तपश्चर्यां चकार तदा किं जातं ददौ नाम प्रायच्छत् the typing errors, not prayachati, prayachatu. Kaha, kam dadau, dayada sampadam. Dayadanam sampatu. So, atra dayada shabdasya putraha ityarthaha. So, santana bhagyam prayachatu. Tasmai dadau, tasmai. Tasmai pagaraya. Kaha dadau, bhrguhu. Bhrgunama maharshihi. Kidrishaha bhrguhu, prita manaha. Pritam manaha yasya. Santushta sittaha bhrguhu, tasmai santana bhagyam prayachatu. So, anvayaha bhavati, saha putriyan sapatnikaha. Shatam samaha tapastepe pritamanaha bhruguhu tasmai dayada sampadam dadavu. Sagara maharajaha putramichchan patnibhyam saha varsha shatam yavat tapastachara. So desiring children, Sagara performed penance along with his wife for 100 years. Santushta chittaha bhruguhu tasmai sagaraya santana bhagyam prayachate. So pleased with his penance, the sage Bhrugu granted him the wealth of children. Santana bhagyam dayada sampadam dadau. Svatra putriyan eti jnayate sapatni kaha patni bhyam saha vidyate eti sapatni kaha tapastepe tapa dahe aishwaryeta iti dhatu hosti tasya atmane padinaha litlakare prathama purushe ekavachana rupam tepe tepate tepire iti rupani bhavanti samaha sama iti akaranta strilingaha dvitiya vibhaktau bahuvachana rupam samvatsaro vatsarobdaha hayano stri sharat samaha ityamarah. So samvatsaraha, vatsaraha, year ityarthe, samaha iti upayujyate, amarakoshasya mate, idam nityam bahuvachanantam bhavati. Samaha ityeva diyate amarakoshe, kintu paninina samam samam vijayate iti ekavachane iti prayujyate. So both are in use. Prita manaha. So prita manas iti sakarantah pullingaha prathama vibhaktau ekavachanam. Pritam manaha yasya saha prita manaha. Dadau dudanya dane dhatuhu parasmaipade litlakare prathama purushe ekavachanam. Dayada sampadam. Dayadaha. Dayam atti iti dayadaha. So dayam nama bhagaha, inheritance. So atti khadati athava bhunkte. So he who partakes of the inheritance, the wealth of an individual are called dayada. Okay. So dayadau sutabandhavau ityamaraha. So putraha ityarthe api dayada shabdaha asti. Bandhavaha ityarthe. So because the direct inheritance is for the children, also sometimes, so there are other cousins, others are also called, also are inheritors. So, samanyataha, pastutaha, kannadadishu bhashasu, dayada shabdena, tadrishaha, bandhavaha eva uchyante, kintu putraha ityarthe api dayada shabdaha asti. So, dayadanam sampati. Dayada sampat tam dayada sampadam saputriyan sapatni kaha tapastepe samashatam bhruguh pritamana tasmai dadau dayada sampadam aprima shlokaha kepi vaktum icchanti. Vasudeva.
श्रूयते वा?
हा श्रूयते. असमञ्जम् सुतम् लेभे.
असमञ्जम् सुतम् लेभे. असमञ्जम् सुतम् लेभे.
वैदर्भीकेशिनीतयोः.
वैदर्भीकेशिनीतयोः. वैदर्भीकेशिनीतयोः.
षष्टिम् पुत्रसहस्राणाम्.
षष्टिम् पुत्रसहस्राणाम्. षष्टिम् पुत्रसहस्राणाम्.
सुमतिश्चय वीयसी.
सुमतिश्चय वीयसी. सुमतिश्चय वीयसी. असमञ्जम् सुतम् लेभे वैदर्भीकेशिनीतयोः. षष्टिम् पुत्रसहस्राणाम्. सुमतिश्चय वीयसी.
पदानि पृथक् पृथगेव सन्ति.
असमञ्जम् सुतम् लेभे वैदर्भी केशिनी तयोः. षष्टिम् पुत्र सहस्राणाम्. सुमतिः च यवीयसि.
वेरि सिम्पल् श्लोक. असमञ्जम् सुतम् लेभे वैदर्भी केशिनी तयोः. षष्टिम् पुत्र सहस्राणाम्. सुमतिः च यवीयसि. सो वेरि वेरि सिम्पल् श्लोक. के वैदर्भी केशिनी. सो केशिनी वैदर्भी हु बिलोंग टू द विदर्भ. शी वॉज द विदर्भ प्रिंसेस. असमञ्जम् सुतम् लेभे. सो शी गॉट अ सन कॉल्ड असमञ्ज. तयोः यवीयसि सुमतिः. यवीयसि नाम कनीयसि. द यंगर ऑफ द टू वॉज सुमतिः. पुत्र सहस्राणाम् षष्टिम् लेभे. सो शी गॉट 60. षष्टिः नाम 60. पुत्र सहस्राणाम्. सो 60,000 सन्स ऑफ सगर. दे आर फेमस. सो लेभे नाम प्राप्तवती. का लेभे? केशिनी सगरस्य प्रथमा पत्नी. सो कीदृशी केशिनी? वैदर्भी विदर्भ देशोत्पन्ना केशिनी. कम लेभे? सुतम पुत्रं प्राप्तवती. कम सुतम असमञ्जम. तस्य नाम असमञ्जः इति. सो असमञ्ज नामकं सुत्रं प्राप्तवती. पुनः का लेभे? सुमतिः च. सो तत्रापि लेभे इत्यस्यैव अन्वयः. सगरस्य द्वितीया भार्या सुमतिः. सो कीदृशी का सुमतिः? यवीयसि. सो अतिशयेन युवतिः यवीयसि. कनीयसि. सो दिस् इस् कम्पेरेटिव्. द यङ्गर् आफ् टु. सो सुमति हु वास् द यङ्गर् आफ् द टु. कयोः यवीयसि? तयोः नाम केशिनी सुमत्योः मध्ये केशिनी ज्यायसि. सुमतिः यवीयसि इत्यर्थः. सो काम लेभे? पुत्र सहस्राणाम् षष्टिम्. सो 60 ऑफ 1000 सन्स्. सो टोटल् षष्टि सहस्रम् पुत्रान् प्राप्तवती. सो वैदर्भी केशिनी असमञ्जम् सुतम् लेभे. तयोः यवीयसि सुमतिः च. पुत्र सहस्राणाम् षष्टिम् लेभे. सो सगरस्य प्रथमा भार्या वैदर्भदेशोत्पन्ना केशिनी असमञ्जनामकं पुत्रं प्रसूतवती. सो द एल्डर् वैफ् वास् केशिनी. शी गाट् अ सन् काल्ड् असमञ्ज. कनीयसी भार्या सुमतिः तु षष्टिसहस्रं पुत्रान् प्राप्तवती. सो सुमति गाट् अ 60,000 सन् वित् द ग्रेस् आफ् भृगु. असमञ्जन् सुतन् लेभे वैदर्भी केशिनी तयोः. षष्टिम् पुत्र सहस्राणाम्. सुमतिश्चय वीयसि. सो लेभे इति दुलभश् प्राप्तौ धातोः लिट्लकारे प्रथमपुरुषे एकवचनम्. पुत्र सहस्राणाम् पुत्राणाम् सहस्राणि. पुत्र सहस्राणि तेषाम्. यवीयसि. सो द्वयोः अतिशयेन युवतिः. सो पूर्वमपि एतद्विषये चर्चा कृता. सो द कम्पेरेटिव् अण्ड् सूपर्लेटिव्. प्रत्ययद्वयं विद्यते संस्कृते. सो द मोर् कामन्ली यूस्ड् प्रत्ययास् आर् तरप् अण्ड् तमप्. सुन्दरतरः सुन्दरतमः. युवतितरा युवतितमा. So you can use that with everything. So in the similar meaning, tarap and tama, we have iyasun and ishtan. So gariyan garishtha, jyayan jyeshtha, shreyan shreshtha, yaviyan yavishtha, so kaniyan kanishtha. So all these words are again comparative and superlative. So yadi dvau putrau tada kaniyan. So yadi bahavaha putraha tarhi kanishtha. Yatha shatrugnaha kanishtha. Dasharathasya putreshu shatrugnaha kanishtha. Sumitrayaha putrayoho shatrugnaha kaniyan. There are only two, Lakshmana and Shatrughna. So tayoho kaniyan, younger ityarthaha. So dasharathasya putreshu kanishtaha. So the youngest among the sons. So tasmineva arthe yaviyasi yavishtaha ityarthaha. So yuvatihi, dvayoho atishayena yuvatihi. So yuva iti shabdat iyasun iti pratyayaha. Ikaranta strilingaha. तस्य प्रथमा विभक्तौ एकवचनम् असमञ्जम् सुतम् लेभे वैदर्भी केशिनी तयोः षष्टिम् पुत्र सहस्राणाम् सुमतिश्चय वीयसी अग्रिमश्लोकः
वदामि वा
असमञ्जसचारित्रम् असमञ्जमपोह्यसः
आरब्धहयमेधस्सन्
अमुञ्चततुरङ्गमम्
अमुं चतुरङ्गमम् असमञ्जसः चरित्रम् असमञ्जसचारित्रम्
असमञ्जम्
अपोह्य सः आरब्धहयमेधः
सम्यक्. सो असमञ्जस चारित्रम् असमञ्जम् अपोह्य सः आरब्ध हय मेधः सन् अमुञ्चत सुरङ्गमम्. अमुञ्चत नाम त्यक्तवान्, प्रेषितवान् इत्यर्थः. कः अमुञ्चत? सः सगरः. सगरस्य विषये उच्यते. सः सगरः पुत्रमिच्छन् तपस्तप्त्वा केशिन्याम् असमञ्जनामकम् एकं सुतं सुमत्यां षष्टिसहस्रं पुत्रांश्च प्राप्तवान्. सः अमुञ्चत. कम् अमुञ्चत? तुरङ्गमम् अश्वम् अमुञ्चत. तत्र आरब्धहयमेधः इत्युच्यते, अर्थात् अश्वमेधयज्ञम् आरब्धवान्. अश्वमेधयज्ञस्य नियमः, सः अश्वः भवति, सः अश्वः एकवर्षपर्यन्तं सर्वासु दिक्षु गच्छेत्. सः त्यज्यते, सः यत्र इच्छति तत्र गच्छति. सो यं यं देशं सः प्रविशति तस्य तस्य देशस्य राजा अस्य अश्वमेधकर्तुः प्रभुत्वम् अङ्गीकुर्यात् अथवा युद्धं कुर्यात्. सो अश्वेन सह सैन्यमपि गच्छति. सो सर्वत्र दिग्विजयं प्राप्य यदा अश्वः प्रतिनिवर्तते तदनन्तरमेव अश्वमेधयज्ञः कर्तुं शक्यते इति नियमः. अतः तुरङ्गमम् नाम अश्वं सः अमुञ्चत, प्रेषितवान्, दिग्विजयार्थं प्रेषितवान् इत्यर्थः. कीदृशः, कथं भूतः सन् अमुञ्चत? आरब्धहयमेधस्सन्. सो अश्वमेधयज्ञस्य दीक्षां प्राप्य, सो यज्ञदीक्षितः सन् तुरङ्गमम् अश्वम् अमुञ्चत. किं कृत्वा अमुञ्चत? अपोह्य नाम दूरीकृत्य. कम् अपोह्य? असमञ्जम् केशिन्याः सुतम् दूरीकृत्य. सो किमर्थम् तम् दूरीकृतवान्, कीदृशम् असमञ्जम्, असमञ्जसचारित्रम्. सो समञ्जसम् नाम उत्तमम् इत्यर्थः, न समञ्जसम् असमञ्जसम् अयुक्तम्. किम् चारित्रम् नाम स्वभावः. सो दुष्टस्वभावयुक्तम् असमञ्जम् दूरीकृत्य, सः असमञ्जः. सो या ये शिशवः जायन्ते अयोध्यायाम्, तान् शिशून् स्वीकृत्य सरयू नद्यां क्षिपति स्म इति रामायणे उच्यते. सो फार् डिलैट्, सो हि वास् अ साडिस्टिक् पर्सन्, सो फार् डिलैट् सो हि यूस् टु किड्नाप् चिल्ड्रन्, न्यू बोर्न् चिल्ड्रन् फ्रोम् द हौसस् आफ् अयोध्या एण्ड् देन् थ्रो देम् इन् टु द सरयू रिवर्. सो फार् दट् सदरा डिसोन्ड् हिस् सन्, सो हि सेण्ट् हिम् अवे एण्ड् ओन्ली हिस् द अदर् सन्स् वेर् देर्. सो असमञ्जसचारित्रम् असमञ्जम् अपोह्य, सः सगरः असमञ्जसचारित्रम् असमञ्जम् अपोह्य आरब्धहयमेधः सन् सुरङ्गमम् अमुञ्चत. सो सगरः दुष्टस्वभावयुक्तम् सुतम् असमञ्जम् दूरीकृत्य अश्वमेधयज्ञदीक्षितः सन् अश्वम् दिग्विजयार्थम् प्रेषयामास. So he sent out the horse for Digvijaya. Asamanjasa charitram, na samanjasam asamanjasam. So asamanjasam charitram yasya saha, tam asamanjasa charitram. Apohya, apa ityupasargaha vaha prapane dhatuhu lyabantavyayam apohya. Arabdha hayamedhaha. आरब्धः हयमेधः येन सः आरब्ध हयमेधः. सो हयमेध इस् अनदर् नेम् फार् अश्वमेध. सो सन् अमुञ्चत, सन् अमुञ्चत. सो देर् इस् अन् अडिशनल् नकार देर्, सन्नमुञ्चत. सो ङमुडागमसन्धिः इत्युच्यते. तुरङ्गमम् घोटके वीति तुरग तुरङ्ग अश्व तुरङ्गमाः उत्तमरः. सो घोटकः नाम अश्वः. सो अश्वस्य पर्यायपदानि घोटकः, वीतिः, तुरगः, तुरङ्गः, तुरङ्गमः, अश्वः. सो आल् वर्ड्स् तुरग, तुरङ्ग, तुरङ्गम आर् आल् डिरैव्ड् फ्रम् द सेम् थिङ्ग्. तुर नाम वेगम् इत्यर्थः, वेगेन गच्छति. सो द मीनिङ्ग् फार् आल् वर्ड्स् आर् सेम्, तुरग, तुरङ्ग, तुरङ्गम. सो वेगेन गच्छति इत्यर्थः. सो असमञ्जसचारित्रम् असमञ्जमपोह्यतः आरब्धहयमेधस्सन् अमुञ्चत तुरङ्गमम्. अग्रिमश्लोकः सुन्दररामन् अस्ति वा भवान्? न श्रूयते. सुन्दररामन् महोदय न श्रूयते. एनिबडि एल्स् वाण्ट्स् टु रिपीट्?
ततस्तं नष्टमन्वेष्टुम् सौमतेयाः प्रतस्थिरे. क्रव्याद वपुषा सह अयं हरिणा अहारि हरिणा हयः ततः तं नष्टम् अन्वेष्टुं सौमतेयाः प्रतस्थिरे.
सम्यक्. क्रव्याद वपुषा सोयं सः अयम् अहारि हरिणा हयः ततः तं नष्टम् अन्वेष्टुं सौमतेयाः प्रतस्थिरे. अहारि अपहृतः. कः अहारि? सोयं हयः नाम अश्वः, सगरस्य अश्वमेधाश्वः अपहृतः. केन अहारि? हरिणा. हरि शब्दस्य इन्द्रः इत्यर्थः अत्र. सो इन्द्रेण अपहृतः. सो कीदृशेन हरिणा? क्रव्याद वपुषा. सो क्रव्यादः राक्षसः. सो राक्षसरूपधारिणा इन्द्रेण सगरस्य अश्वमेधाश्वः अपहृतः. वस्तुतः सः सगरस्य शततमः अश्वमेधयज्ञः. सो हिस् 100th अश्वमेधयज्ञ. सो शतक्रतुः, यः शतम् अश्वमेधयज्ञान् करोति सः इन्द्रपदवीं प्राप्नोति इति अस्ति. अतः तस्य शततमं यज्ञं भङ्क्तुम् इन्द्रः यज्ञ अश्वम् अपहृतवान्. यज्ञाश्वं विना यज्ञः न सम्भवति इति. सो प्रतस्थिरे प्रस्थितवन्तः. कदा प्रतस्थिरे? ततः नाम अश्वे अपहृते सति. के प्रतस्थिरे? सौमतेयाः, सुमतेः पुत्राः. सौमतेयाः षष्टिसहस्रं सुमतिपुत्राः प्रतस्थिरे. किं कर्तुं प्रतस्थिरे? अन्वेष्टुं, मार्गयितुं, टु सर्च्, टु लुक् फार्. सो कम् अन्वेष्टुं? नष्टं तम्. सो नष्टः अश्वः, अदृश्यमानः अश्वः. सो तम् अन्वेष्टुं सौमतेयाः प्रतस्थिरे. सोऽयं हयः क्रव्यादवपुषा हरिणा अहारि ततः नष्टं तम् अन्वेष्टुं सौमतेयाः प्रतस्थिरे. सुसगरस्य अश्वमेधाश्वः राक्षसवेषधारिणा इन्द्रेण अपहृतः. द हार्स् वास् स्टोलन् बै इन्द्र इन् द गैस् आफ् अ डीमन्. ततः अदृश्यमानं तम् अश्वं मार्गयितुं षष्टिसहस्रं सुमतिपुत्राः प्रस्थिताः. सो टु सर्च् फार् द लास्ट् हार्स् द 60,000 सन्स् आफ् सुमति. सो दे आल् सेट् औट् to search for it. Kravyada vapusha. Kravyada vapuriva vapuhu yasya saha. So bahuvrihi samasaha. Yatha gajananaha. Gajasya ananam iva ananam yasya saha. So he whose face is like the face of an elephant. Okay. So tatha kravyadasya vapuhu iva vapuhu yasya saha. He whose body, वपुः देहः इत्यर्थः, इस् लैक् द बाडी आफ् अ क्रव्याद. क्रव्याद वपुस् इति सकारान्तः पुल्लिङ्गः, तृतीयाविभक्तौ एकवचनम्. अहारि हृञ् हरणे धातोः कर्मणि लुङ्लकारः. सो इट् इस् अ कर्मणि प्रयोग. हरिणा हयः अहारि. हरिः हयं हृतवान् अहार्षीत् इत्यर्थः. इन्द्रेण अश्वः अपहृतः. कर्मणि प्रयोगः. कर्मणि लुङ्लकारे प्रथमपुरुषे एकवचनम्. अहारि, अकारि, अभाषि, आल् दीस् आर् फार्म्स् इन् लुङ्लकार कर्मणि. हरिणा. हरि शब्दस्य बहवः अर्थाः सन्ति. सो इफ् यु लुक् एट् अमरकोश, यमानिलेन्द्र चन्द्रार्क विष्णु सिंहांशुवादिषु शुकाहि कपिभेकेषु हरिर्ना कपिले त्रिषु. एतावन्तः अर्थाः हरिशब्दस्य. यमः अनिलः, अनिलः इत्युक्ते वायुः. इन्द्रः चन्द्रः. अर्कः नाम सूर्यः. विष्णुः सिंहः. अंशुः नाम किरणः. वाजी अश्वः. शुकः अहिः नाम सर्पः. कपिः भेकः भेकः मण्डूकः अफ्रॉग सो एतेषु सर्वेषु अर्थेषु हरिः ना नाम पुल्लिङ्गे पुल्लिङ्गे हरिशब्दः एतेषु सर्वेषु अर्थेषु उपयुज्यते कपिले त्रिषु कपिलवर्णः सो कपिल इस् अ कलर् इट्स् लैक् एन् आरेञ्ज् ब्रौन् कलर् टानिङ्ग् इत्युच्यते TAWNY सो तस्य वर्णस्य कपिलवर्णः इति नाम सो तस्मिन् अर्थे त्रिषु लिङ्गेषु सो इट् इस् अ विशेषण सो इट् केन् बि यूस्ड् इन् त्री लिङ्गस् बट् द पुल्लिङ्ग हरिशब्द केन् बि यूस्ड् इन् आल् दीस् सेन्सस् सो अस्मिन् श्लोके तु इन्द्रः इत्यर्थे प्रयुक्तः हयः सो हयः इत्यस्यापि अश्वः इत्येव अर्थः वाजिवाहार्व गन्धर्व हयसैन्धव सप्तयः सो पूर्वतनश्लोके तुरङ्गमः इत्युक्तः सो तत्र केचन शब्दाः ज्ञाताः घोटके तुरग तुरङ्ग अश्वतुरङ्गमाः वाजि वाह अर्व गन्धर्व हय सैन्धव सप्तयः सो जस्ट् बै गोयिङ्ग् थ्रू द अमर सो लैक् दिस् ऐ मीन् वेन् एवर् यु कम् अक्रास् अ वर्ड् सो जस्ट् वित् टू श्लोकस् यु केन् लर्न् सम् 12 ओर् 14 synonyms of ashwa right so vaadi vaahaha arva gandharvaha hayaha saindhavaha saptihi turagaha turangaha turangamaha ashwaha ghotakaha so all these are synonyms of the horse ahari harina hayaha tatastam nashtam anveshtum anveshtum anu ityupasargaha isha ichchayam iti dhatuhu तुमुन्न प्रत्ययः अन्वेष्टुं सौमतेयाः सुमतेः अपत्यं पुमान् सौमतेयः लैक् विनतायाः अपत्यं पुमान् वैनतेयः तथा सुमतेः अपत्यं पुमान् सौमतेयः सौमतेयाः प्रतस्थिरे प्र उपसर्गः ष्ठा गतिनिवृत्तौ इति धातुः सो अत्र विशेषः स्था धातुः परस्मैपदी अतिष्ठति इति किन्तु यदा प्र इति उपसर्गः भवति तदा धातुः आत्मनेपदी भवति प्रतिष्ठते इत्येव प्रतिष्ठति इति असाधु सो तिष्ठति प्रतिष्ठते सो तस्य लिट्लकारे आत्मनेपदे प्रथमपुरुषे बहुवचनरूपं सो प्रथमुपविभ्यः स्थः इति सूत्रेण आत्मनेपदं विधीयते प्रतिष्ठते संतिष्ठते उपतिष्ठते वितिष्ठते सो विद् दीस् फोर् उपसर्ग द स्था धातु गेट्स् आत्मनेपद सो आत्मनेपदे लिट्लकारे प्रथमपुरुषे बहुवचनं प्रतस्थे प्रतस्थाते प्रतस्थिरे क्रव्यादवपुषा सोऽयम् अहारि हरिणा हयः ततस्तन्नष्टमन्वेष्टुम् सौमतेयाः प्रतस्थिरे अग्रिमश्लोकः एनिबडि वांट्स् टु रिपीट् वेङ्कटेश्वरं देवटान् म्यूट् अस्ति सर्वे सपर्वतामुर्वीम्
सर्वे सपर्वतामुर्वी सर्वे सपर्वतामुर्वी
खनन्तस्सकरात्मजाः
खनन्तस्सकरात्मजाः क्षणन्तःसकरात्मजाः
चक्रुर्झर्झरितध्वान्तम्
चक्रुर्झरितध्वान्तम् चक्रुर्झरितध्वान्तम्
नागलोकम् नखांशुभिः
नागलोकम् नकांशुभिः नागलोकम् नकांशुभिः सर्वे सर्वे सपर्वतामुर्वीं சகராத்மஜாஹ சகுர் ஜர் 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 சக்ருர் ஜர் ஜரித வாந்தம் நாகலோகம் நகாஷுபி நகாம்ஷுபிஹி சர்வே சபர்வதாம் உவி கனந்தஹ சகர சாகர சாகர சகர ஆத்மஜாஹ சக்ருர் ஜர் சக்ருஹ ஜர் ஜரித த்வாந்தம் நாகலோகம் நகாம்ஷுபிஹி
நக அம்சுபிஹி நகாம்சுபிஹி சர்வே ச பர்வதாம் உர்வீம் கனந்தஹ சகர ஆத்மஜாஹ சகராத்மஜாஹ சக்ருஹ ஜர்ஜரித த்வாந்தம் நாகலோகம் நக அம்சுபிஹி சோ சக்ருஹ வ்யததுஹ விஹிதவந்தஹ சோ கே சக்ருஹ சர்வே சகராத்மஜாஹ சகரஸ்ய சகலாஹ புத்ராஹ சோ ஆல் தோஸ் சன்ஸ் ஆஃப் சகர கிம் சக்ருஹ ஜர்ஜரித த்வாந்தம் சோ ஜர்ஜரித வித்வம்சிதம் இத்யர்த்தஹ It literally means to be cut into pieces, okay, split into pieces. Ityarthaha. Jharjharita dhvantam. Dhvantaha andhakaraha. So andhakaraha nashtaha. So kutra andhakaraha nashtaha? Nagaloke. So nagalokam jharjharita dhvantam chakruhu. Nagalokaha patale asti. So vastutaha tatra sarvada andhakaraha bhavati. Yatha suryasya. பிரகாஷ ந பிரவிஷதி அத்த சாமான்யதஹ அந்தகாரஹ பவதி கிந்து சகரஸ்ய புத்ரைஹி நாகலோகஸ்ய அந்தகாரஹ வித்வம்சிதஹ ஸோ பாதாலஸ்ய அந்தகாரஹ நஷ்டஹ கதம் நஷ்டஹ கைஹி நாகலோகம் ஜர்ஜரிதத்வாந்தம் சக்ருஹ நகாம்சுபிஹி நகஸ்ய நகானாம் அம்சுபிஹி அம்சுஹ நாம கிரணஹ நகஹ நெய்ஸ் கரருஹாஹ சோ கரருஹாணாம் கிரணைஹி சோ த டார்க்னஸ் ஆஃப் நாகலோக வாஸ் டிஸ்ட்ராய்ட் பை த ஷீன் ஆஃப் தேர் நெய்ஸ் சோ பை தேர் ஷைனிங் நெய்ஸ் நகாம் சுபிஹி நாகலோகம் ஜர்ஜரித த்வாந்தம் சக்ருஹ சோ கிங் குர்வந்தஹ சோ கதம் நகாம் சுபிஹி நகாம்சவஹ கதம் க்வாதாலம் பிரவிஷந்தி இது சேத் கனந்தஹ அவதாரயந்தஹ டிக்கிங் சோ காம் கனந்தஹ உர்வீம் பிருத்வீம் கனந்தஹ கீத்ருஷீம் உர்வீம் சபர்வதாம் பர்வதைஹி சஹிதாம் நாம ஷைல சஹிதாம் பிருத்வீம் கனந்தஹ சகராத்மஜாஹ நகாம்சுபிஹி நாகலோகம் ஜர்ஜரித த்வாந்தம் சக்ருஹ சோ சர்வத்ர பிருத்திவ்யாம் அஸ்வம் அன்விஷ்டவந்தஹ அஸ்வஹ ந லப்தஹ அஸ்து தர்ஹி பூமேஹ அதஹ அஸ்தி வா பஷ்யாமஹ இதி பூமிம் நிகாதவந்தஹ சோ அஸ் தே டக் அப் த எர்த் சோ த எர்த் அலாங் வித் இட்ஸ் மவுண்டன் சோ எவ்ரிதிங் இட் வாஸ் டக் அப் சோ தே மேட் அ ஹியூஜ் ஹோல் சோ When they were digging, as they were digging, they dug so deep that they entered the Patala and the Patala itself was lit up by the by their gleaming nails. Tyartha. So, Sarve Sagaratmajaha Saparvatam Urvim Khanantaha Nakham Shubhihi Nagalokan Jajjaritadvantan Chakruhu. So, Sagaraputraha Ashvasya Anveshanartham சைலசிதாம் பிருத்வீம் அவதாரயந்தஹ கரருஹாணாம் கிரணைஹி பாதாலம் வித்வம்சிதாந்தகாரம் வ்யததுஹ பாதாலமேவ ப்ரவிஷ்டவந்தஹ இத்யர்த்தஹ சோ சபர்வதாம் பர்வதேன சஹிதா சபர்வதா தாம் தாதிருஷீம் உர்வீம் சர்வம் சஹா வசுமதி வசுதோர்வீ வசுந்தரா இது அமரகோஷஹ சோ வசுதா உர்வி உர்வி நாம பூமிஹி இத்யர்த்தஹ கனந்தஹ கனு அவதாரணே தாதுஹ த तस्य शत्रु प्रत्ययः सकारान्तः पुल्लिङ्गः प्रथमाविभक्तौ बहुवचनम् खनन् खनन्तौ खनन्तः झर्झरितध्वान्तम् झर्झरितः ध्वान्तः यस्य सः झर्झरितध्वान्तः नखांशुभिः नखानाम् अंशवः तैः नखः पुनर्भवः कररुहः नखोस्त्री नखरोस्त्रियाम् synonyms of nail punarbhavah that which is born again so how much ever you cut your nails they grow again so punarbhavah kararuhah kare rohati that which grows in the hand is kararuha the nail nakhah nakharah so ete sarve nakhasya paryaya padani amshuhu ityasya kiranah ityarthah किरणोऽस्त्र मयूखांशु गभस्ति घृणिरश्मयः किरणः अस्त्रः मयूखः अंशुः गभस्तिः घृणिः रश्मिः भानुर्हंसः सहस्रांशुः इत्युच्यते सूर्यस्य सहस्रांशुः सहस्रकिरणः इति नाम अंशुः नाम किरणः सर्वे सपर्वताम् उर्वीम् खनन्तस्सगरात्मजाः चक्रुर्झर्झरितध्वान्तम् नागलोकन्नखांशुभिः अन्तिमश्लोकः अद्यतने अद्य अन्तिमश्लोकः अनुवक्तुमिच्छन्ति एते तपसा दीप्ते
एते तपसा दीप्ते तयेते तपसा दीप्ते
तमस्तोमप्रमाथिनि
तमस्तोमप्रमाथिनि तमस्तोमप्रमाथिनि
कापिले ज्वलने वीराः
कापिले ज्वलने वीराः कापिले ज्वलने वीराः
लेभिरे शलभोपमाम्
लेभिरे शलभोपमाम् लेभिरे शलभोपमाम् स एते तपसा दीप्ते तमः तमस्तोम प्रमाथिनि अपि कापिले ज्वलने तीरा लेभिरे तीराः लेभिरे शलभोपमाम्
शलभ उपमां शलभोपमां लेभिरे ते एते तपसा दीप्ते तमः स्तोम प्रमाथिनि कापिले ज्वलने वीराः लेभिरे शलभ उपमाम् लेभिरे प्राप्तवन्तः के प्राप्तवन्तः त एते ते एते के सगरपुत्राः कीदृशाः ते वीराः वीर्यवन्तः सो दे वर् वेरि ब्रेव् They looked through the entire earth, not finding the Ashva. They even went to the Patala. They didn't give up. Te viraha kam levire shalabhopamam levire shalabhasya patangasya sadrishyam levire. So they attained similarity to shalabha or patanga. So patanga or moth, the fire moth, it is known for flying into the fire, right? यथा प्रदीप्तं ज्वलनं पतंगाः विशन्ति नाशाय समृद्धवेगाः अत्रापि शम्पूरामायणे मन्मथस्य वर्णने उक्तं किल अङ्गदेशस्य वर्णनं श्लोकः अमुञ्चदङ्गं सद्यः प्रपद्य शलभत्वम् अमुञ्चदङ्गम् तस्मादमुं जनपदं विनुरङ्गसंज्ञम् यत्र मन्मथः शिवस्य नेत्राग्नौ सद्यः प्रपद्य शलभत्वम् शलभत्वम् प्राप्य यथा पतङ्गः अग्निना नष्टः तथा मन्मथः शिवस्य नेत्राग्निना नष्टः तथैव एते सागराः कपिलस्य कापिले ज्वलने वीराः लेभिरे शलभोपमाम् सो शलभोपमाम् लेभिरे पतङ्गसादृश्यं प्राप्तवन्तः सो कस्मिन् शलभोपमां लेभिरे ज्वलने नाम अग्नौ कीदृशे ज्वलने तपसा दीप्ते तमस्तोम प्रमाथिनि कापिले ज्वलने. सो देयर आर थ्री विशेषण गिवन टू ज्वलन. ज्वलनः नाम अग्निः. सो तपसा दीप्ते, तपसा तपश्शक्त्या दीप्ते प्रज्वालिते. सो द फायर ऑफ पेनेंस, सो तपश्शक्ति, दट इज वाई इट इज वेरी स्ट्रांग. सो तपसा दीप्ते ज्वलने, पुनः कीदृशे तमस्तोम प्रमाथिनि. तमस्तोमम, तमसः स्तोमम. सो स्तोमम नाम समूहः, अंधकार समूहमेव नाशयितुं शक्तिः यस्य भवति तादृशः ज्वलनः अग्निः. पुनः कीदृशे कापिले ज्वलने, कपिल महर्षि संभवे. तत्र एते सागराः, सागरपुत्राः पातालं प्रविशन्ति. तत्र सः अश्वः इन्द्रेण अपहृतः. इन्द्रः तम् अश्वं पाताललोकं नीत्वा तत्र कपिलमहर्षिः, कपिलमहर्षिः साक्षात् महाविष्णोरवतारः, सांख्य शास्त्रस्य प्रवक्ता इति स्मर्यते कपिलः. सः तत्र तपसि निरतः आसीत्. तस्य कपिलस्य समीपे अश्वं बद्ध्वा इन्द्रः गतवान्. एते सगरपुत्राः पातालं प्रविश्य दृष्टवन्तः, तत्र अश्वः अस्ति, समीपे एव सः तपश्चरति कपिलः. ते चिन्तितवन्तः एषः कपिलः एव अश्वं चोरितवान् इति विचिन्त्य कपिलस्योपरि आक्रमणं कर्तुम् उद्युक्ताः. तदा कपिलस्य तपश्शक्त्या प्रज्वालिते अग्नौ ते शलभोपमां प्राप्तवन्तः. सो ते एते वीराः तपसा दीप्ते तमस्तोम प्रमाथिनि कापिले ज्वलने शलभोपमां लेभरे. सो वीर्यवन्तः सगरपुत्राः तपश्शक्त्या प्रज्वालिते अंधकार समूहस्य विनाशके कपिल महर्षि संभवे अग्नौ पतंग सादृश्यं प्राप्तवन्तः. कः अर्थः? कपिलस्य कोपाग्निना दग्धाः. सो दे वर बर्न्ड बाय द फायर ऑफ कपिलस एंगर. So these brave sons of Sagara, so they attained similarity to moth in the fire which was burning due to penance, fire of Kapila which was burning due to penance and which was capable of destroying the andhakara, darkness. तमस्तोम प्रमाथिनि, तमसः स्तोमं तमस्तोमं, तमस्तोमं प्रमाथयति इति तमस्तोम प्रमाथि. प्रमाथिन् नकारान्तः पुल्लिङ्गः, सप्तमी विभक्तौ एकवचनम्. ज्वलनः कृपीटयोनिर्ज्वलनः जातवेदास्तनूनपात्. अग्निर्वैश्वानरो वह्निः इति अग्निशब्दस्य पर्यायेषु ज्वलनः इति पठ्यते. शलभोपमां, शलभस्य उपमा, ताम् शलभोपमां लेभिरे. समौ पतंग शलभौ इति अमरकोशे अस्ति. एते तपसा दीप्ते तमस्तोम प्रमाथिनि कापिले ज्वलने वीराः लेभिरे शलभोपमाम्. अद्य गंगावतरणस्य कथा आरब्धा. तत्र सगरः इति सूर्यवंशस्य राजा अयोध्या नगरीम् अधिवसति स्म. तस्य द्वे भार्ये केशिनी सुमतिश्च. सः सगरः पुत्रम् इच्छन् शतं वत्सराणि यावत् तपश्चचार. ततः भृगुमहर्षेः प्रसादात् पुत्रान् प्राप्तवान्. केशिन्याः सुतः असमञ्जः, सुमत्याः षष्टिसहस्रं पुत्राः जाताः. असमञ्जः दुष्टस्वभावयुक्तः सगरेण दूरीकृतः. ततः अश्वमेधयज्ञम् आरभ्य अश्वं सर्वत्र प्रेषितवान् सगरः. सः अश्वः राक्षसवेषधारिणा इन्द्रेण अपहृतः. तम् अश्वम् अन्विष्यन्तः सगरपुत्राः पृथ्वीं खनन्तः पातालं प्राप्तवन्तः. तत्र कपिलस्य कोपाग्निना दग्धाः. इत्येतावती कथा अद्य दृष्टा. अग्रे भगीरथस्य प्रयत्नः वक्ष्यते. मंगलम वेंकटेश्वर महोदय you are muted you can unmute yourself
सत्यं सनोतु नितराम् इतरानपेक्षम् अङ्घ्रिद्वयम् निगमशाचिक्षिका प्रबालम् हैरम्बमम्बुरुहडम्बरचौर्यनिघ्नम् विघ्नाद्रिभेदशतधार दुरन्धरम् नः
धन्यवादः थैंक यू विल मीट इन द नेक्स्ट क्लास